एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति सर्वकारेण संसदि प्रस्तुतेषु आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमेषु सर्वेषां दलानां विचाराः भावनाश्च समाविष्टाः सन्ति। प्रतिनिधि सभायाः ह्यस्तनोपवेशे सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाणां विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् प्रधानमन्त्री प्रचण्डः अगदत् अस्य वर्षस्य नीति कार्यक्रमेषु विगत वर्षाणाम् अपेक्षया मौलिकता वर्तते। प्रधानमन्त्री प्रचण्डः अवोचत् मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्नस्य निर्वाचनस्य पश्चात् निर्मितस्य गठबन्धन द्वयस्य न्यूनतम संयुक्त कार्यक्रमाणाम् अनुकूल विषयाः नीति कार्यक्रमेषु समाविष्टाः सन्तीत्यतः इमे नीति कार्यक्रमाः राष्ट्रिय सहमतेः अभिलेखो वर्तते। प्रधानमन्त्री प्रचण्डः वासत सर्वकारस्य नीति कार्यक्रमाः कतिपयैः जनैः उचितरूपेण आनीताः कुत्रचित् संशोधनीयाश्च सन्तीति परामर्शस्य प्राप्तौ सत्यामपि समग्रतः देशस्य समस्याया समाधान प्रदान समर्थाः सन्ति। तत्पूर्वं प्रतिनिधिसभायाः प्रारम्भे एव समयं गृहीत्वा प्रधानमन्त्री प्रचण्डः पशुपतिनाथ मन्दिरे स्थापितायाः स्वर्ण जलधार्याः विषये प्रमुख प्रतिपक्षी दलस्य नेतुः केपी शर्मा ओलिनः योजनम् उचितम् नास्तीति स्पष्टीकृतवान्। प्रधानमन्त्री प्रचण्डः जलधारी प्रवृत्तिषु विषयेषु कार्यसम्पादनस्य क्षेत्राधिकार पशुपति विकास कोषस्य वर्तते इत्यवोचत। प्रधानमन्त्री प्रचण्डः जलधार्याः स्थापनायाः सन्दर्भे कथितायाः अनियमिततायाः विषये अधिकार दुरूपयोगानुसन्धानायोगेनापि अनुसन्धानम् विधीयमानमस्ति इति चर्चयन् अवोचत् सर्वकारस्य अत्र सहयोगो भवति। नेकपा माओवादी केन्द्रस्य सांसदेन लेखनाथ दाहालेन परह्यः संसदि प्रदत्ताम् अभिव्यक्तिम् आदाय प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन संसदः अवरोधनस्य पश्चात् शीर्ष नेतृष्व वितायाः सहमते अनुसारेण प्रधानमन्त्रिणा प्रचण्डेन स्पष्टीकरण प्रदानस्य अनन्तरं संसदः अवरोधः ह्य अपाकृतोऽस्ति। तत्पूर्वं प्रमुख दलत्रये पशुपतिनाथ मन्दिरे स्थापितायाः जलधार्याः सम्बन्धे सर्वकारस्य पक्षतः सदनं स्पष्टीकर्तुं सहमतिः धृता आसीत्। सीमाप्रसादवर्तिनी प्रधानमन्त्री कार्यालये ह्य शीर्षनेतृषु विहिते विमर्शने प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन संसदि सम्बोधनस्य क्रमे पशुपतौ स्थापितायाः जलधार्याः विषये स्पष्टीकर्तुं सहमतिः धृता आसीत्। उपवेशे प्रधानमन्त्री प्रचण्ड नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा प्रमुख प्रतिपक्षणो नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली चेत्यादयो नेतारः सहभागिनः आसन्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः अस्यैव ज्येष्ठस्य सप्तदश दिवसात् विंशम दिवसम् यावद् भारतस्य औपचारिकम् भ्रमणम् विधाता। प्रधानमन्त्री प्रचण्डः भारतस्य प्रधानमन्त्रिणः नरेन्द्र मोदिनः मैत्रीपूर्ण निमन्त्रणायम् भारत भ्रमणाय प्रस्तीयमानोऽस्तीति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। भ्रमणस्य क्रमे प्रधानमन्त्रिणः प्रचण्डस्य भारतस्य राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया उपराष्ट्रपतिना जगदीप धनखड़ इत्यनेन च सह शिष्टाचार मेलनस्य कार्यक्रमो वर्तते। एवमेव प्रधानमन्त्री प्रचण्ड ज्येष्ठस्य अष्टादशे दिवसे भारतस्य प्रधानमन्त्रिणा मोदिना सह हैदराबाद भवने प्रतिनिधिमण्डलस्तरीयां वार्तां विधातेति मन्त्रालयेन ज्ञापितं वर्तते। वार्तायाः पश्चात् उभाभ्यामेव प्रधानमन्त्रीभ्यां संयुक्त पत्रकार सम्मेलनं विधास्यते। भारतस्य प्रधानमन्त्रिणा मोदिना नेपालस्य प्रधानमन्त्रिणः एतस्य प्रतिनिधिमण्डलस्य च सम्माने दिवाभोजस्य आयोजना च विधास्यते। प्रधानमन्त्रिणः प्रचण्डस्य नेपालोद्योग वाणिज्य महासंघेन भारतीयोद्योग परिसंघेन च संयुक्त रूपेण आयोजितस्य नेपाल भारत व्यापार शिखर सम्मेलनस्य सम्बोधनेन सह देशद्वयस्य व्यापारीभि सह अन्तर क्रियायाश्च कार्यक्रमो वर्तते। प्रधानमन्त्री प्रचण्डः भारतस्य कृते नेपाली राजदूतेन शंकर प्रसाद शर्मणा आयोजिते स्वागत समारोहे सहभागी भूत्वा भारते विद्यमानैः नेपाली समुदायैः सहापि वार्तां विधाता। प्रधानमन्त्री प्रचण्डः अस्यैव ज्येष्ठस्य विंशे दिवसे काष्ठमण्डपम् प्रत्यागमनात् पूर्वं मध्यप्रदेशस्य उज्जैन नगरस्य इन्दोर नगरस्य च भ्रमणाय गन्ता। प्रधानमन्त्रिणः रूपेण प्रचण्डस्य भ्रमणमिदं चतुर्थं वर्तते। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमला दाहाल प्रचण्ड भ्रष्टाचारस्य विरूद्धे कतिचित् समयाभ्यन्तरे एव महत कार्यम् विधीयमानम् अस्ति इति संकेतयति। प्रेस सेन्टर नेपालस्य उनविंश्याम् साधारण सभायाम् एकविंशस्य कृष्णसेन इच्छुक स्मृति दिवसस्य च अवसरे यः आयोजिते समारोहे प्रधानमन्त्री प्रचण्ड आत्मना भ्रष्टाचारस्य अव्यवस्थायाश्च विरूद्धे प्रवर्तितमस्ति अवोचत। प्रधानमन्त्री प्रचण्ड जनयुद्धे कोटिशः जनतया सहयोगस्य प्रधानस्यैव भ्रष्टाचारस्य अव्यवस्थायाश्च विरूद्धस्य आन्दोलनेऽपि जनतया सहयोग प्राप्यते इति विश्वासं व्यक्तवान्। कार्यक्रमे संचार सूचना प्रविधि मन्त्री रेखा शर्मा भ्रष्टाचारस्य विरूद्धे अभियानस्य सञ्चालनस्य कारणात् सर्वकारः परिवेष्टने पतितः इति उदयरयत। विगत कालिक शासकैः विहितं परिवेष्टनं स्वाभाविकमस्तीति भाषमाणा मन्त्री शर्मा सर्वकारेण विहितानि उचित कार्याणि जनतायाः समक्षं नेतव्यानीत्यत्र बलं प्रादात्। नेकपा माओवादी केन्द्रस्य प्रवक्ता कृष्णबहादुर महरा माओवादी नेतृत्वस्य सर्वकारस्य विरूद्धे जायमानं वैदेशिकम् आन्तरञ्च परिवेष्टनं त्रोटयितुं सर्वैः स्वस्व पक्षतः प्रवर्तनीयमिति विचारं व्यक्तवान्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा कथयति प्रजातन्त्रस्य सुदृढीकरणाय सर्वैः प्रवर्तनीयम्। नेपाल प्रेस युनियन संगठनस्य द्वात्रिंशस्य स्थापना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे सभापति देउवा अभाषत प्रजातन्त्रं सुदृढं विधातुं सर्वैः प्रवर्तनीयम्। सभापति देउवा प्रजातन्त्रस्य विकल्पः प्रजातन्त्रमेव अस्तित्यतः प्रजातन्त्रस्य विरूद्धे कतिपय शक्तयः प्रवर्तिताः सन्तीत्यतः तत् सर्वैः सावधानैर्भाव्यमिति उदयरयत। सभापतिः देउवा लोकतन्त्रे संचार जगता विधीयमानायाः आलोचनायाः सहनस्य क्षमता नेतृभिः स्रष्टव्येति धारणां व्यक्तवान्। स्वास्थ्य जनसंख्या मन्त्रालयेन उष्मकालस्य प्रारम्भेण सहैव वृष्टिः जायमानस्तीत्यतः डेंगूरोगस्य संक्रमणात् आत्मानं रक्षितुम् अनुरुद्धं वर्तते। मन्त्रालयेन ह्यः सूचनां प्रकाश्य वृष्टेः प्रारम्भेण सह मशकानां सन्ततिरपि प्रवर्धन्ते इत्यतः डेंगूरोगस्य संक्रमणात् आत्मानं रक्षितुम् अनुरुद्धमस्ति। मन्त्रालयेन डेंगू संक्रमणात् आत्मानः रक्षणाय मशकानां दंशनात् आत्मनः रक्षणीयः इति निगद्य सदा दोलाम् उपयुज्य शयनं कर्तुं कृष्यां कार्यतावस्थायां दीर्घाकारस्य वस्त्रं परिधातुं गृहस्य गवाक्षेषु द्वारेषु च जालं स्थापयितुं च अनुरुद्धमस्ति। बारावर्तिनी हुलाको बचत कोषागारे वित्त संकलन कर्तृभिः एकीकृतानि आसन्न कोटि द्वयम् रूप्यकाणि प्रवञ्च्य पलायितः बारा जनपद पत्राचार कार्यालयस्य प्रमुख बलिराम प्रसाद कुर्मी ह्य प्रहरिणा निगृहीतोऽस्ति। हुलाको बचत कोषागारे संचयन कर्तृभिः एकीकृतानि आसन्नैक कोटितः 95 लक्षेभ्यश्च अधिकानि रूप्यकाणि प्रवञ्च्य पलायितः प्रमुख कुर्मी ह्यो निगृहीत इति बारा जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षकश्च पुरूषोत्तम पाण्डे अज्ञापयत। पर्सा जनपदस्य बहुदरमाई नगरपालिकायाः द्वितीय वडा क्षेत्रस्य कुर्मी जनपद न्यायालयात् पञ्चानां दिनानां नियन्त्रणावधिं प्रवर्ध्य अनुसन्धानाय बारा जनपद प्रहरी कार्यालय नियन्त्रणे स्थापितोऽस्ति इति प्रवक्ता पाण्डे असूचयत। रूपन्देही जनपदस्य उद्योगी व्यवसायिनः भैरवावर्तिनी गौतम बुद्ध अन्तर्राष्ट्रिय विमानस्थले अन्तर्राष्ट्रियोड्डयनानि नियमित रूपेण सञ्चालयितुम् अनुरुन्धन्ति। उद्योग व्यापार संघटनस्य रूपन्देही शाखया ह्य भैरवस्थाने आयोजिते कार्यक्रमे उद्योगी व्यवसायिनः विमानस्थले अन्तर्राष्ट्रियोड्डयनानाम् अभावेन विकासे बाधा सृष्टा स्थिति वेदनाम् अकुर्वन्। उद्योगी व्यवसायिनः प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य भारत भ्रमणात् पूर्वमेव विमानस्थलस्य विषये भारत सर्वकारेण सह विमर्शनाय प्रदेश सर्वकारेण स्वस्य भूमिका निर्वोढ अभ्येति विचारं व्यक्तवन्तः। नेपाल विद्युत प्राधिकरणेन मासद्वयस्य अभ्यन्तरे काष्ठमण्डपे भूमिगत तन्त्री प्रणालीतः विद्युत वितरणाय पूर्व कार्यं विहितमस्ति। महाराजगंज वर्तिन रत्नपार्कस्थान वर्तिनश्च विद्युत संयोजन केन्द्रयो अन्तर्गतेष् पानी पोखरी लाजिमपाटा नारायणहिटी संग्रहालय सह कीर्तिपुरा पार्श्ववर्ती क्षेत्रेषु भूमिगत तन्त्र प्रणाल्या माध्यमेनैव विद्युत वितरणाय पूर्व कार्य प्रारब्धमिति नेपाल विद्युत प्राधिकरणस्य प्रवक्ता सुरेश बहादुर भट्टराई अज्ञापयत। मार्गेभ्य उपभोक्तृणाम गृहाणि कार्यालयाञ्च यावद् भूमिगत रूपेण तन्त्रैः विस्तार्य विद्युत वितरणेऽपि कति सूचित मासेषु विद्युत स्तम्भाः न अपसार्यन्ते इति योजना स्थिति प्रवक्ता भट्टराई असूचयत। इति समाचाराः।